नमस्सर्वेभ्यः अद्य विभक्तिवर्गे सप्तदशः पाठः एप्रिल् मासस्य षोडशः दिनाङ्कः रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरसमूः रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरुः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो चतस्रः विभक्तयः अस्माभिः अधीताः किञ्चित् पुनरावर्तनं कृत्वा अग्रे गच्छामः आदौ विभक्तिः नामका कतिप्रकारकाः विभक्तयः विभक्त्यर्थाः के इति ज्ञातम् विभक्तिः इति प्रत्ययः पदं संस्कृते द्विविधम् नामपदं क्रियापदम् अथवा सुबन्तं तिङन्तम् तत्र सुबन्तस्य प्रकृतिः प्रातिपदिकम् तिङन्तस्य प्रकृतिः धातुः प्रातिपदिकात् सुप् इति एकविंशतिः प्रत्ययाः योज्यन्ते एतेषामेव प्रत्ययानां विभक्तिप्रत्ययाः इति नाम ताः विभक्तयः सप्तधा विभक्ताः प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी इति विभक्तिः बहुविधान् अर्थान् बोधयति वस्तुनिर्देशे विभक्तिः उपयुज्यते क्रियया सह सम्बन्धं बोधयितुं विभक्तिः उपयुज्यते पदार्थेन सह सम्बन्धं बोधयितुं विभक्तिः उपयुज्यते अन्यस्य पदस्य अन्वयं द्योतयितुमपि विभक्तिः प्रयुज्यते एते चत्वारः अथवा चत्वारि मुख्यप्रयोजनानि विभक्तेः तत्र प्रथमा विभक्तिः वस्तुनिर्देशे यथा सः बालः एषः वृक्षः इत्यादिषु कस्यचिद् वस्तुनः निर्देशे उपयुज्यते कर्तृवाचकात् प्रथमा दृश्यते यथा बालः पठति अहं गच्छामि इत्यादिषु कर्मवाचकादपि प्रथमा विभक्तिः भवति मया गन्तव्यं बालेन पठितम् इत्यादि कर्मवाचकप्रत्ययानां योगे कर्मवाचकादपि प्रथमा विभक्तिः भवति सम्बोधनप्रथमा इति प्रथमा विभक्तेः एव प्रभेदः सम्बोधने उपयुज्यते द्वितीया विभक्तिः कर्मवाचकात् द्वितीया विभक्तिः भवति पाठं पठति फलं खादति इत्यादिषु केचन द्विकर्मकाः प्रयोगाः भवन्ति यत्र कर्मपदद्वयं भवति उभाभ्यामपि द्वितीया विभक्तिः दृश्यते गुरुं प्रश्नं पृच्छति स्यूतं शालां नयति इत्यादयः उपपदद्वितीया केषाञ्चित् पदानां प्रयोगे द्वितीया विभक्तिः भवति परितः उभयतः विना इत्यादीनां प्रयोगे तत्सम्बद्धं पदं द्वितीया विभक्तौ भवति तृतीया विभक्तिः करणवाचकात् तृतीया हस्तेन लिखति नेत्राभ्यां पश्यति पादाभ्यां गच्छति इत्यादि कर्तृवाचकादपि तृतीया भवति कर्मवाचकानां प्रयोगे सो वेर् एवर् वी हाव् द कर्मणि प्रत्यय द कर्मपद इस् इन् प्रथमा एण्ड् द कर्तृपद इस् इन् तृतीया यथा मया पाठः पठनीयः रामेण रावणः हन्यते इत्यादिषु भाववाचकानां पदानां तृतीया भवति सः सन्तोषेण हसति दुःखेन रोदिति कष्टेन वदति इत्यादिषु उपपदतृतीया कैश्चित् पदैः सह द्वितीया विभक्तिः यथा सह इत्येव पदम् सह साकं सार्धं समम् इति सर्वाणि समानार्थकानि विना इत्यनेन योगे तृतीया भवति अलम् कलहेन अलम् पाठेन अलम् इत्यादिषु अपि तृतीया विभक्तिः भवति ततः चतुर्थी विभक्तेः प्रयोगाः अपि अस्माभिः अधीताः सम्प्रदानम् सम्प्रदानवाचकात् चतुर्थी भवति किं नाम सम्प्रदानम् इत्यत्र बहुविधानि सम्प्रदानानि सन्ति दानक्रियायाः उद्देश्यम् यत्र किमपि दीयते तत्र यम् उद्दिश्य दानम् दीयते द इण्टेण्डेड् रिसिपियण्ट् आफ् गिविङ्ग् सः सम्प्रदानम् भवति बालाय फलम् ददाति बालिकायै लेखनीम् ददाति इत्यादिषु रुचिधातोः प्रयोगे प्रीयमाणः द पर्सन् हू लैक्स् तस्मादपि चतुर्थी विभक्ति भवति बालकाय फलं रोचते गणेशाय मोदकं रोचते मह्यं पुष्पाणि रोचन्ते इत्यादि क्रुध द्रुह ईर्ष्य असूय इत्येतेषां धातूनां प्रयोगे कोपपात्रात् चतुर्थी विभक्तिः यस्य विषये कोपः अस्ति तस्मात् चतुर्थी विभक्तिः भवति रामाय क्रुध्यति पाण्डवेभ्यः द्रुह्यति रुक्मिण्यै ईर्ष्यति इत्यादि प्रयोगे यस्य विषये कोपः तस्मात् चतुर्थी विभक्तिः उपपदचतुर्थी नमःशब्देन योगे चतुर्थी विभक्तिः रामाय नमः गुरवे नमः इत्यादि कल्पते अथवा भवति इति क्रिया यत्र अस्ति तत्र चतुर्थी यथा विद्या ज्ञानाय कल्पते परोपकारः पुण्याय भवति इत्यादि अन्ये अपि बहवः शब्दाः सन्ति स्वस्ति स्वाहा स्वधा वषट् हितं सुखम् इत्यादीनां प्रयोगे अपि चतुर्थी विभक्तिः भवति गत्यर्थकधातूनां कर्मणि सः गृहं गच्छति सः गृहाय गच्छति इति उभयविधप्रयोगाः भवन्ति द्वितीया अथवा चतुर्थी गृहं गच्छति गृहाय गच्छति शालां गच्छति शालायै गच्छति उभयथापि प्रयोगः कर्तुं शक्यः तुमुन्नन्तस्य प्रयोगे चतुर्थी यथा सः पुष्पम् आनेतुम् उद्यानं गच्छति पुष्पम् आनेतुम् इति तुमुन्नन्तम् यदा तस्य प्रयोगः नास्ति तदा कर्मपदात् पुष्प इत्यस्मात् चतुर्थी सः पुष्पाय अथवा पुष्पेभ्यः बहुवचने अस्ति चेत् उद्यानं गच्छति सः फलेभ्यः आपणं गच्छति इत्यादि प्रयोगेषु चतुर्थी दृश्यते तादर्थ्ये चतुर्थी तदर्थस्य भावः तादर्थ्यं तत्र द्वेधा तादर्थ्यं दृष्टम् प्रकृतिविकृतिभावः कुण्डलाय सुवर्णम् यूपाय दारु इत्यादिषु एवमेव उपकार्य उपकारकभावः विप्राय धेनुः दरिद्रेभ्यः धनम् इत्यादिषु तादर्थ्ये चतुर्थी विभक्तिः दृष्टा अद्य पञ्चमी विभक्तिं पश्यामः केऽपि प्रश्नाः सन्ति वा एनी क्वेश्चन्स् about what we have done so far. Sridhar Mahodaya.
Namaste Mahodaya. So, Tadatya Chaturthi, which is Samshaya Gasti. Jayartham, Dhanartham, Adi Shabdhanam Stane, Chaturthi Prayogam Bhavatikya.
Bhavati. Tatra arthashabdena arthashabdasya prayojanam ityeva arthah. Arthashabdena samase jayartham ityadi bhavati. Depending on the context again. Tadathe chaturthi ityasya vishaye bahavaha matabhedaha sante. I mean, within the scholars itself there is a difference of opinion on how exactly tadarthya is defined. So, and you cannot decide a vibhakti based on a single word. It always has to be a sentence for any vibhakti. When you say jayartham, what is the complete sentence? Tatra chaturthi bhavitum arhati. Kintu kasmin arthe chaturthi iti vakyam drishtva eva vaktum shaknumaha.
So, yadi vakyam jayaya prayatnam karaniya.
Jayartham prayatnaha karaniyaha ityarthe jayaya prayatnaha karaniyaha iti chaturthi vibhakti hi bhavati. Tatra tadathe chaturthi api bhavati upakarya upakaraka bhavaha. Prayatnaha prayatnate jayam siddhyati. Ataha tadathe chaturthi iti vaktum shakyate.
Prayatnaha.
So, prayatna leads to jaya. So, yes.
Dhanyavad, Amman.
Vashat ityasya kaha arthaha iti kena siddhrishtam. Svaha ityasya yaha arthaha saeva vashat. Svaha svadha vashat. Trayanam api padanam samanaha arthaha. It is a word which is used to indicate offering in different kinds of yajnas. As we saw, Svaha is used for yajnas or homas which are performed using the Grihiya Agni, the fires at home. Svadha is used for offerings to the Pitru Devatas. And Vashat is used for any sacrifices which are conducted externally, that is not with to the Grihiya Agni. Okay. So all three are the same in meaning. So it is just the context, different context use different words. Anya prashnaha santiva? अस्तु अद्य पंचमी विभक्तिम पश्यामः एकं क्षणं कृपया एक्सक्यूज मी जस्ट फॉर वन मोमेंट आदौ पञ्चमी विभक्तेः कानिचन उदाहरणानि पश्यामः. वृक्षात् पर्णं पतति. वृक्षात् parnam patati. Vrikshat iti panchami. The leaf falls from the tree. Balaha shalayaha pustakani anayati. The boy brings books from the school. Shalayaha pustakani anayati. Janaha nadyaha griham agachanti. People come home from the river. Tvam grihat kutra gachasi. Where do you go from home? So, samanyataha yatha jnayate yatra yatra from iti yarthasya prayogaha bhavati. Tatra samanyataha panchami bhaktihi bhavati. Tatra kasmin arthe iti vishishya jnatum prayatnam kurmaha. Apadanam iti karakam asti. Yatha sampradanam drishtam. Sampradanat chaturthi. Evam apadanat panchami. Apadanamupi bahuvidham asti. Tatra prathamam vibhagasya avadhihi. Point of separation. Patanam. Adau parinam vrikshena saha sanyuktam asti. Tatra vibhagaha bhavati. Tada avadhihi. The point from which it is separated. Vrikshat parinam patati. Shakhayaha parinam patati. Or hastat parinam patati. Utpethikayaha parinam patati. So, from where it is getting separated. So, that is apadana. Evameva anayati. Adau lekhani apane asit. Apanat lekhanim anayati. So, initially there was contact or association between the shop and the pen. So, by bringing, we are causing a separation. So, udyanat pushpam anayati. Shalayaha pustakam anayati. Devalayat prasadam anayati. So, patati anayati. Agachati. So, gramat agachati. Adau gramasya balasya cha sambandhaha asit. Yada vibhagaha bhavati. Avadhihi gramaha. Balaha gramat agachati. Grihat agachati. Nagaryaha agachati. Shalayaha agachati. So, evam vibhagasya avadhihi apadanam ityuchyate. Dhruvam apaye apadanam iti sutram. Paniniyam sutram. Apayaha nama vishleshaha. Athava vibhagaha. Tatra dhruvam avadhibhutam apadana samyakam bhavati. Okay? Apadane panchami. So, apadana vasakat prayena panchami vibhaktihi bhavati. Patati, gachati, agachati, anayati, ityadi naam dhatu naam vishaye. Yatra yatra dhatu na vibhagaha karyate. Tatra kasmat agachati, athava kutaha agachati. Kutaha ityavyasya artha dvayam asti. Kimartham ityapi artha asti. Kasmat ityapi artha asti. From where or why iti artha dvaye kutaha iti upayujyate. Yada kutaha kasmat pradeshanityarthaha tada tasya prashnasya uttaram apadanam panchami vibhaktau bhavati. Panchami vibhaktehe rupani api drishtani. Balaha balat, balika balikayah, nadi nadyah, mitram mitrat, pullinge napumsakalinge cha at iti antam bhavati, strilinge yah. Idaniyam panchami vibhaktau ekavachana rupani vaktavyani. So, ye vaktum icchanti kripaya hastaha unniyantam. Radhika.
Balaha balat. Apanat. Devat.
Dhanyavadaha. Rao, mohana.
Yeah, but before I start this, I have a question on the Chaturthi Vibhakti. Can I ask you?
Yes, please.
Okay. See, for example, when you say Ramaya Namaha, that Namaha is a Namavachaka, it's a Namaskaram. Like that, when you say Swadha, Swaha, Vashat, are they also Namavachakas?
What do you mean by a Namavachaka?
That means that Padmaya. Pranavibhakti Ekavachanam, right? Namaha?
Namaha is an avyayam.
Okay. Swaha, an avyayam.
Yes. Swaha, Swada, all of them are avyayas.
Then what are the roots for that? Swaha, Swada and then Vashat.
What rules? I mean.
Root, Dhatu.
No, they are avyayas. There is no... there might be an
Dhatu.
Not necessarily. I mean, of course, there is a this that they're all words are derived from Dhatus, but that is not a complete rule. I don't know. I mean, first for now, they might be derived from Dhatus. I don't know for now. I'll find out.
Okay, so,
but it is not a necessary rule that all words have to be derived from Dhatu. Okay.
So, it has given.
Sorry? Yeah, I mean, there are some words which are this. So, there are matabhedas again regarding that. But definitely there are words, especially among Anvayas. Say, if you have a word like cha, is it derived from a dhatu? It is not. So, or
thank you very much.
Or tatha. So, especially among Avyayas, there are many words which are not derived from a dhatu. So, yeah.
Okay, the... This Panchami Vibhakti, Mitram, Mitrat, what could be, Rashtram, Rashtrat or Rashtrat, Gruham, Gruhat or Gruhad.
Yes, Dhanyavada. Shri Priya.
Balikayah. Mahilayah. Ramayah.
Thank you. Venkateshwaran.
Sita yaha. Girija yaha. Shala yaha.
Venkateshan, Mahodaya.
Nari Naryaha. Gauri Gauryaha. Gopi Gopyaha.
Samyak. Lakshmi Muralidharan.
Adi Nadyaha. Madhyaha.
Madhavyaha.
Vani Vaniyaha.
Samyak. Idanim Agrimaha Abhyasaha Kutaha Agachati Iti Sarvani Santi Tesham Panchami Vibhaktihi Prayoktavya. Harmandar Singh.
Gramat agachati. Nagaryah agachati. Shalayah agachati.
Shalayah agachati. Next one.
Grahat agachati.
Samyak. Grahat agachati. Next. Shridhar Mahalaya.
Namaste. Granthalayat agachati.
Mm.
Lankayaha agachati.
Mm.
Kashyaha agachati.
Mm.
Mandirat agachati.
Mm. Same. So gramat nagaryaha shalayaha grihat granthalayat lankayaha kashyaha mandirat agachati. So agamanena vibhagaha bhavati vibhagasya avadhihi etat. Okay. So evameva kasmat kutra gachati. So there is a series of places. Itaha yatha grihat mandiram gachati, mandirat apanam gachati, apanat udyanam gachati ityadi vaktavyam. Shivaram Kulkarni.
Namo namaha. Balaha gruhat shalam gachati. Balaha shalat kridanganam gachati.
Shala strilingam.
Balaha shalayaha kridanganam gachati. Balaha kridanganat apanam gachati. Balaha apanat pradarshinim gachati. Balaha pradarshinyaha gruham gachati.
Samyak. So griham grihat shalam gachati, shalayaha kridanganam gachati, kridanganat apanam gachati, apanat pradarshinim gachati, pradarshinyaha griham gachati. Agrimam Krishna Mahodaya.
Rameshaha Rajasthanat Dehalim gachati. Rameshaha Dehalyaha Himachala Pradesham gachati. Rameshaha Himachala Pradeshat Kashmiram gachati. Rameshaha Kashmirat Kanyakumarim gachati.
Samyak. So Rajasthanat Dehalim Dehalyah Himachala Pradesham, Himachala Pradeshat Kashmiram, Kashmirat Kanyakumarim. Sharma Mahodaya.
Girija Ayodhyayah Madhuram gachati. Girija Madhurayah Kashim gachati. Girija Kashyah Purim gachati. Girija Puryah Prayagam gachati. Girija Prayagat Pataliputram gachati.
Samyak. Ayodhyayaha Mathuram gachati. Mathurayaha Kashim gachati. Kashyaha Purim gachati. Puryaha Prayagam gachati. Prayagat Pataliputram gachati. Mahadevan Mahadeva.
Vasudha Bharata Sri Lanka gachati. Vasudha Sri Lankaya Lakshadvipam gachati. Vasudha Lakshadvipa Brahmadesham gachati. Vasudha Brahmadesha America gachati.
America
gachati. Vasudha Amerikaya Simhapurim gachati. Vasudha Simhapurya Bharatam gachati.
Samyak. So Bharatam Bharatat Sri Lankam Sri Lankayah Lakshadvipam Lakshadvipat Brahmadesham Brahmadeshat Amerikam Amerikayah Simhapurim Simhapuryah Bharatam. Sharma Mahode.
Bhavatya Dhruvasukta Sadhanam विभागबिन्दुः इति उक्तम्. रोचकस्य स्थिरार्थः अपि अस्ति.
स्थिरार्थः प्रसिद्धः, किन्तु अत्र तु अवधिभूतम् इत्येव अर्थः सिद्धान्ते स्वीकृतः. ध्रुवम् इत्यनेन स्टेशनरी इत्यर्थः स्वीकर्तुं न शक्यते, यतोहि
विभागे एकः स्थिरमस्ति, द्वितीयः चलति.
न, प्रथमः अपि चलितुमर्हति. धावतः अश्वात् पतति इति प्रयोगः दृश्यते. तत्र अश्वः न स्थिरः. धावतः अश्वात् पतति इति यत्र प्रयोगः, तत्र अश्वः न स्थिरः, तथापि सः ध्रुवः अस्मिन् अर्थे. यथा पत विभागक्रियायाः अनाश्रयत्वमेव ध्रुवत्वं, न तु केवलं स्थिरत्वम्. विभागस्य या क्रिया यथा पतनक्रिया, तस्याः अनाश्रयत्वमेव ध्रुवत्वम् इति. अत एव अवधिभूतम् इत्येव अर्थः स्वीक्रियते, न तु केवलं स्थिरः इति. यत्र चलत् चलन् अवधिः, तत्र तदा अपादानं न सिद्ध्येत् यदि स्थिरार्थः स्वीक्रियते. ब्रह्मदेशः कः इति, बर्मा इत्यस्य संस्कृते ब्रह्मदेशः इति प्रयोगः. सिङ्गपुर्, सिंहपुरी अन्यत् ज्ञायते. कुतः किं पतति इति अग्रिमं पश्यामः. मीनाक्षी वृक्षात् फलं पतति.
आकाशात् तोयं पतति.
आकाशात् तोयं, तोयम् इत्यस्य जलम् इत्यर्थः. आकाशात् पतितं तोयं, यथा गच्छति सागरं. सर्वदेव नमस्कारः, देवं प्रति गच्छति इति भवतु.
स्वर्गात् पुष्पाणि पतन्ति.
स्वर्गात् पुष्पाणि पतन्ति. रामानुजन् महोदय.
हस्तात् पुस्तकं पतति.
हस्तात् पुस्तकं पतति.
नेत्रात् अश्रूणि पतन्ति. अङ्गुल्याः अङ्गुलीयकं पतति.
सम्यक्. सो अङ्गुल्याः अङ्गुलीयकम्, अङ्गुलीयकं रिङ्ग् which you wear on the finger. Ashruni, tears. Agre. So, others who would like to try, those who have not tried anything so far. Uma Shankari.
मस्तकात् केशाः पतन्ति.
मस्तकात् केशाः पतन्ति.
शाखायाः पर्णानि पतन्ति. अश्वात् योधः पतति.
सम्यक्. अश्वात् योधः पतति. हर्मन्दर्
सिंह. बालं पतति.
बालः पतति. निःश्रेण्याः बालः पतति. निःश्रेणी इस् अ लाडर्. सो द बाय् फाल्स् फ्रम् द लाडर्.
दोलायाः बाला पतति.
दोलायाः बाला पतति. दोला इज़ अ स्विङ्ग्.
उल्कायाः शिलाखण्डाः पतन्ति.
सम्यक्. उल्कायाः शिलाखण्डाः पतन्ति. उल्का इज अ मीटियर. सो ततः शिलाखण्डाः, स्टोन्स् आर् चङ्क्स् फाल् फ्रोम् द मीटियर्. केनचित् कश्चित् प्रश्नः, प्रदर्शिनी इत्यस्य कः अर्थः इति. प्रदर्शिनी इस् एन् एक्सिबिशन्. इदानीं पञ्चमी विभक्तेः अन्य वचनरूपाणि पश्यामः. बालात्, बालाभ्यां, बालेभ्यः. मित्रात्, मित्राभ्यां, मित्रेभ्यः. बालिकायाः, बालिकाभ्यां, बालिकाभ्यः. नार्याः, नारीभ्यां, नारीभ्यः. इदानीम् एतेषामेव पदानां पञ्चमी विभक्तिरूपाणि वदामः. महादेवन्.
बालः, बालात्, बालाभ्यां, बालेभ्यः. आपणः, आपणात्, आपणाभ्याम्, आपणेभ्यः. देवः, देवात्, देवाभ्याम्, देवेभ्यः.
हा, सम्यक्. कृष्ण महोदय.
मित्रात्, मित्राभ्यां, मित्रेभ्यः. राष्ट्रं, राष्ट्रात्, राष्ट्राभ्यां, राष्ट्रेभ्यः. गृहं, गृहात्, गृहाभ्यां, गृहेभ्यः.
सम्यक्. मीनाक्षी.
बालिकायाः, बालिकाभ्यां, बालिकेभ्यः.
बालिकाभ्यः.
Both are the same. बालिकाभ्यां,
बालिकाभ्यां,
बालिकाभ्यः.
A is heard only in pullinga and napumsakalinga. So.
महिलायाः, महिलाभ्यां, महिलाभ्यः. रमायाः, रमाभ्यां, रमाभ्यः.
वेङ्कटेशम्.
सीतायाः, सीताभ्यां, सीताभ्यः. गिरिजायाः, गिरिजाभ्यां, गिरिजाभ्यः. शालायाः, शालाभ्यां, शालाभ्यः.
सम्यक्. उमाशङ्करी.
नारी, नार्याः, नारीभ्यां, नारीभ्यः. गौरी, गौर्याः, गौरीभ्यां, गौरीभ्यः. गोपी, गोप्याः, गोपीभ्यां, गोपीभ्यः.
हरमंदर सिंह.
नदी, नद्याः, नदीभ्यां, नदीभ्यः. माधवी, माधव्याः, माधवीभ्यां, माधवीभ्यः. वाणी, वाण्याः, वाणीभ्यां, वाणीभ्यः.
सम्यक्. अग्रे कुतः किम् आनयति इति. यथा बालकः आपणात् वस्तूनि आनयति, आपणाभ्यां वस्तूनि आनयति, आपणेभ्यः वस्तूनि आनयति. पञ्चमी विभक्त्याः एव सर्वेषु वचनेषु प्रयोगः. यत् कर्मपदमस्ति तत्तु यस्मिन् वचने अस्ति तस्मिन्नेव वचने भवतु. पञ्चमी विभक्तेः सर्वेषु वचनेषु प्रयोगं कुर्मः. बालकः आपणात् वस्तूनि आनयति. बालकः आपणाभ्यां वस्तूनि आनयति. बालकः आपणेभ्यः वस्तूनि आनयति. Anybody else would like to try? So, apart from those who have tried already. Please raise your hands and participate. Dhanya.
Balakaha gramat phalani anayati. Balakaha gramebhyam
phalani.
Balat gramabhyam phalani anayati. Balakaha gramebhyah phalani anayati.
Samyak. Rao. Mohanaya.
Yes. Balakaha devalayat prasadaha anayati. Balakaha
anayati.
Prasadam anayati. Balakaha devalayabhyam prasadam anayati. Balakaha devalayabhyah
prasadam
anayati.
Devalayebhyah
prasadam anayati.
Kailasam. Nashruyate. Is your microphone connected? हरि ओम. कैलासं महोदय न श्रूयते. वेङ्कटेश्वरन्.
बालकः ग्रन्थालयात् पुस्तकानि आनयति. बालकः ग्रन्थालयाभ्यां पुस्तकानि आनयति. बालकः ग्रन्थालयेभ्यः पुस्तकानि आनयति.
शिवराम कुलकर्णी.
बालकः नगरात् वस्त्राणि आनयति. बालकः नगराभ्यां वस्त्राणि आनयति. बालकः नगरेभ्यः वस्त्राणि आनयति.
रामानुजन.
बालकः तीर्थात् बालकः तीर्थात् जलम् आनयति. बालकः तीर्थाभ्यां जलम् आनयति. बालकः तीर्थेभ्यः जलम् आनयति.
महादेवन.
बालकः उद्यानात् पुष्पाणि आनयति. बालकः उद्यानाभ्यां पुष्पाणि आनयति. बालकः उद्यानेभ्यः पुष्पाणि आनयति.
लक्ष्मी मुरलीधरन.
बालकः वनात् सस्यानि आनयति. बालकः वनाभ्यां सस्यानि आनयति. बालकः वनेभ्यः सस्यानि आनयति.
सम्यक्. अग्रे अपि समानम्. अत्र तु स्त्रीलिङ्गपदानि सन्ति. तस्मात् किं स्वीकरोति, यथा रमा बालिकायाः पुष्पं स्वीकरोति, रमा बालिकाभ्यां पुष्पम् अथवा पुष्पाणि स्वीकरोति, रमा बालिकाभ्यः पुष्पाणि स्वीकरोति. एवं क्रमेण करणीयम्. औच्. उमाशङ्करि.
अग्रजाय रमा अग्रजायाः शाटिकाम् आनयति
स्वीकरोति
रमा स्वीकरोति रमा अग्रजाभ्यां शाटिकां स्वीकरोति रमा अग्रजाभ्यः शाटिकां स्वीकरोति
सम्यक् धन्या
रमा अनुजायाः पुस्तिकां स्वीकरोति रमा अनुजाभ्यां पुस्तिकां स्वीकरोति रमा अनुजाभ्यः पुस्तिकां स्वीकरोति
सम्यक्
सम्यक्
हरमंदर सिंह
रमा वृद्धायाः स्यूतं स्वीकरोति रमा वृद्धाभ्यां स्यूतं स्वीकरोति रमा वृद्धाभ्यः स्यूतं स्वीकरोति
श्रीधर
नमस्ते रमा कर्मकर्याः मार्जनीं स्वीकरोति रमा कर्मकरीभ्यां मार्जनीं स्वीकरोति रमा कर्मकरीभ्यः मार्जनीं स्वीकरोति
शिवराम कुलकर्णी
नमो नमः रमा गोप्याः घटं स्वीकरोति रमा गोपीभ्यां घटं स्वीकरोति रमा गोपीभ्यः घटं स्वीकरोति
वेंकटेश्वरम्
रमा सहोदर्याः लेखनीं स्वीकरोति रमा सहोदरीभ्यां लेखनीं स्वीकरोति रमा सहोदरीभ्यः लेखनीं स्वीकरोति
लेखनीं स्वीकरोति महादेवन्
रमा तापस्याः फलं स्वीकरोति रमा तापसीभ्यां फलं स्वीकरोति रमा तापसीभ्यः फलं स्वीकरोति
एवं प्रथमम् अपादानं विभागस्य अवधिः सो एतेषु एतासु क्रियासु पतनम् आनयनम् आगमनं गमनं स्वीकरणम् एतासु सर्वासु क्रियासु विभागः विद्यते तत्र विभागस्य अवधिः अपादानम् अपादानात् पञ्चमी विभक्तिः भवति इदं प्रथमम् अपादानम् द्वितीयम् अपादानम् अधुना पश्यामः बालः व्याघ्रात् बिभेति द बॉय इज स्केर्ड ऑफ द टाइगर फियर्स द टाइगर मम परीक्षायाः भीतिः नास्ति एक्सक्यूज मी जस्ट वन मोमेंट मम परीक्षायाः भीतिः नास्ति ऐ डू नॉट हैव एनी फियर फ्रॉम द एग्जाम्स फ्रॉम द एग्जाम परीक्षायाः भीतिः नास्ति सा सर्पात् भीता शी इज अफ्रेड ऑफ द सर्पेंट और स्नेक सर्वदमनस्य कस्मादपि भयं नास्ति सर्वदमना does not fear, have fear from anything. So wherever we are using the derivatives of bhi, that is bhaya, fear, the source of fear gets panchami vibhakti, is called apadana. So bhayasya karanam, the source of fear is called apadana, tasmat panchami vibhaktihi bhavati. Bhitrarthanam bhayahetuhu iti paniniyam sutram. So all kinds of forms of bhi. So bhayam, bhitihi, both of them mean fear. Bhitaha, bhita, the person who is afraid of. So balaha bhitaha, balika bhita. So it is a kapratyanta form. Bhihi also means bhayam, fear. Bibheti is a tinganta. He fears. So bibheti, bibhitaha, bibhyati. It is an special verb. So the forms are slightly different. But trasyati is a regular verb. Trasyati, trasyataha, trasyanti. So it also means to be afraid of. So etesham sarvesham api prayoge bhayasya yan moolam, that which is the source of fear, that gets panchami vibhakti because it is an apadana. So balakaha kasmat bhitaha iti vakyam prachayamaha. Ramanujan, what
is? Aham balakaha. Aham simhat bhitaha. Aham balakaha mitrat bhitaha.
Mitrat bhitaha.
Balakaha suchyaha bhitaha. Anya vachane shopi.
Nana, eka vachane. Allah. Ito pekam.
Ito. Balakaha parikshayaha bhitaha.
Ha, sami. So, simhat bhitaha. Mitrat bhitaha. Suchyaha bhitaha. Suchi is a needle or injection. So, fear of the needle or injection. Parikshayaha bhitaha. Sharma. Okay.
Balakaha shalayaha bhitaha. Balakaha janakat bhitaha. Balakaha pitamahya bhitaha. Balakaha
vaiphalyam is failure. So afraid of failure. Pitamahi, grandmother. Father, mother. So next, evameva. Kebhyaha bhayam. Atra bahuvachanam asti. Tatsya panchami vibhakti prayogaha kartavyaha. Lakshmi.
Yes. Balakebhyaha.
Kasmat bhayabhyaha. Fear of. There is no balaka. You just use one of the words. Okay. So.
Okay. Chorebhyaha. Bhayam.
Bhayam. Chorebhyaha. Bhayam.
Bhayam. Naryebhyaha. Bhayam.
Naryebhyaha. Bhayam.
Naribhyaha bhayam. Mitrani. Mitrabhyaha bhayam.
Mitrebhyaha.
Mitrebhyaha bhayam. Parikshabhyaha bhayam.
Samyak. Parikshabhyaha bhayam. Chorebhyaha bhayam. Naribhyaha bhayam. Mitrebhyaha bhayam. Parikshabhyaha bhayam. Danya. Danya, you are muted. I think you have to unmute yourself.
Balakaha. Rakshasyaha. Rakshasaha vada.
Rakshasi. Rakshasi.
Balaka. Rakshasyaha bhayam.
Balaka iti mastu kevalam. Rakshasyaha bhayam iti eka vachane. Bahu vachane.
Rakshasyaha.
Bahu vachane. Rakshasyaha, rakshasibhyam.
Rakshasibhyaha. Rakshasibhyaha.
No problem. Rakshasibhyaha bhayam.
Sarpaha sarpabhyam sarpabhyaha bhayam.
Sarpebhyaha bhayam.
Sarpaha sarpebhyaha. Aushadani aushadaha. Aushadam. Aushadam, aushadat, aushadabhyam, aushadebhyaha.
Samyak. Aushadebhyaha bhayam.
Bhayam. Then churikaha is strilingam. Okay. Churikayaha, churikabhyam, churikabhyaha. Bhayam.
Churikabhyaha bhayam. Samyak. Rakshasibhyaha bhayam, sarpebhyaha bhayam, aushadebhyaha bhayam, churikabhyaha bhayam. Evam yatra yatra bhayam athava tat sambaddha padanam. So related words, synonyms of bhaya, bhita, bhiti, etc. So the source of fear is always used in panchami vibhakti. Okay. Adyatra sthagayamaha. Agrima saptahe panchami vibhaktehe anyan prayogan pashyamaha. Prashnaha santiva? Any questions? Ramo Rajamani Sada Vijayate Ramam Rameshaṁ Bhaje Ramena Abhihata Nishachara Chamoho Ramaya Tasmai Namaha Ramannasti Parayanam Parataram Ramasya Dasosmyaham Rame Chittalaya Sada Bhavatume Bho Rama Mamuddhara Guru Reva Gatihi Guru Meva Bhaje Guru Naiva Sahasmi Namo Gurave Na Guroh Paramam Shishurasmi Guroh Matirasti Gurau Mama Pahi Guroh.